श्री सद्गुरु दिगंबरदास महाराज विरचित संक्षिप्त सद्गुरु चरित्र श्रीमत सच्चिदानंद श्री सद्गुरु वासुदेवानंद सरस्वती तथा रावसाहेब बाबा महाराज सहस्रबुद्धे यांचे ओवीबद्ध संक्षिप्त सद्गुरु चरित्र। ओम तत्सत। श्री सद्गुरुवे नमः। श्री गणेश वंदन स्तोत्रम। लंबोदरम महाकायम शूर्पकर्णम गजाननम सर्वार्थसिद्धिदं देवं वंदेहं गणनायकं गिरिजात्मजं निजानंदं शिवपुत्रं निरंजनं भक्तिप्रियं सदाशांतं वंदेहं गणनायकं ब्रह्मविष्णुमहेशैश्च वंदितं इष्टकामदं विनायकं गुरुं नित्यं वंदेहं गणनायकं गणंजयं गणाधीशं गुणेशं च परात्परं पूर्णं निर्गुणमाद्यं च वंदेहं गणनायकं प्रणवं बिंदुसंयुक्तं चतुर्वेदप्रवर्तकं गानप्रियं निरालंबं वंदेहं गणनायकं कर्ता धर्ता च संहर्ता नियंता सिद्धिनायकः सर्वान्तःसाक्षिकं तं च वंदेहं गणनायकं विकटं धूम्रराजेन्द्रं कृष्णपिंगाक्षसौख्यदं हेरंबं वक्रतुंडं च वंदेहं गणनायकं विश्वाधारं विभुं वैद्यं भवरोगनिवारकं कृपार्णवं दीनानाथं वंदेहं गणनायकं सुरेशं च सुरश्रेष्ठं सुरेन्द्रं सुररक्षकं दिव्यदीप्तिप्रभायुक्तं वंदेहं गणनायकं पालकं खेजराणां च असुराणां नाशकं सिद्धिबुद्धिप्रदं देवं वंदेहं गणनायकं मतिप्रदं स्वयं ज्ञानं केवलं ज्ञानरूपिणं ज्ञानेशं च प्रभुं साक्षात् वंदेहं गणनायकं चैतन्यात्मा स्वयं नित्यं पापघ्नं धरणीधरं त्रिलोकवापकं सत्यं वंदेहं गणनायकं नित्यानंदं परं देवं भक्ताधीनं जगत्पतिं करुणार्णव जगन्नाथं वंदेहं गणनायकं आनंददायकं नित्यं आनंदं स्वात्मसौख्यदं वेदांतस्य रहस्यार्थं वंदेहं गणनायकं तुरीयं तत्पदं मूलं चतुर्वाणी प्रवर्तकं ससंवेद्यं स्वतः सिद्धं वंदेहं गणनायकं मूलाधारं रक्तवर्णं रक्तांगं भक्तपूजितं रक्तपुष्पप्रियं देवं वंदेहं गणनायकं नादबिंदुकलातीतं स्वयं ज्योतिः सनातनं वाहनं मूषकं यस्य वंदेहं गणनायकं मुदितं मोदकं चैव चतुर्मुक्तिप्रदायकं आद्यंतरहितं ध्वान्तं वंदेहं गणनायकं वागीशं वाक्पदं वादं द्वंद्वातीतं विमत्सरं स्नेहार्द्रं सद्गुरुं देवं वंदेहं गणनायकं लोकपालं लोकनाथं साक्षाद् अग्नेस्वरूपिणं दुःखघ्नं पुण्यदातारं वंदेहं गणनायकं एकदन्तं चतुर्हस्तं पाशमं कुशधारिणं रक्तवस्त्रपरिधानं वंदेहं गणनायकं सर्वं खल्विदं ब्रह्माख्यं रुचिरं मोदकप्रियं विकररहितं नित्यं वंदेहं गणनायकं वरदं विघ्नराजेन्द्रं महाविघ्नप्रमोचकं शुभदं समतायुक्तं वंदेहं गणनायकं जगन्नाट्यप्रियं नित्यं वेदाधिष्ठानमव्ययं उपनिषत्सारदं देवं वंदेहं गणनायकं चिन्मयं सच्चिदानंदं अद्वितीयं गुणात्मकं कालातीतं स्वयं तत्त्वं वंदे सिद्धिविनायकं पञ्चविंशतिभिः श्लोकैर्गथिता पुष्पमालिका समर्पिता मया कंठे गणेशस्य कृपानिधेः सद्गुरुप्रेरितं स्तोत्रं यत्पठेत् भक्तिमान् नरः भुक्तिं मुक्तिं तथा शान्तिं लभते नात्र संशयः एकवारं पठेन्नित्यं व्याधिमुक्तो भवेन्नरः द्विवारं यः पठेन्नित्यं तस्य शत्रुन् विनश्यति त्रिवारं यः पठेन्नित्यं धनधान्यसमन्वितः भवेल्लक्ष्मीयुतः सत्यं शुद्धभक्तिसमन्वितः लक्ष्यपाठात् गणेशस्य दर्शनं सत्वरं भवेत् एवं वरो मया प्राप्तो गणेशस्य प्रसादतः सद्गुरुप्रेरितं स्तोत्रम् अर्पितं तत्पदाम्बुजे भक्तिभावेन दासेन नम्रेण शिरसा सदा। इति श्रीसद्गुरुप्रेरितं गणेशवरप्रदं ಶ್ರೀ ಗಣೇಶ ವಂದನ ಸ್ತೋತ್ರಂ ಸಂಪೂರ್ಣಂ ಶ್ರೀ ಸದ್ಗುರು ಚರಣಾರವಿಂದಾರ್ಪಣಮಸ್ತು.